सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमानिकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमानिकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश गयिते तव सुप्रभातम् तव सुप्रभातम् अरविन्द लोचने भवतु प्रसन्न मुख चंद्र मंडले विधि शंकरेन्द्र वनिताभिरचिते वृषशैलनाथ दयिते दयानिधे हत्रादि सप्त ऋषयः समुपास्य संघां आकाश सिंधु कमलानि मनोहराणि आदाय पादयुगमर्चयितुं प्रपन्ना शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाब्ज भव षण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधास्तु वन्ती भाषापति पठति वासर शुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईशत् प्रफुल्ल सरसीरुह नारिकेल कूगद्रुमादिषु मनोहर पालिकानाम् आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्ट कदली फलपायसानि भुक्त्वा तलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तन्त्री प्रकर्ष मधुरस्वनया विपञ्चा गायत्यनन्तचरितं तव नारदोऽपि भाषा समग्रमसकृत्करचाररम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् शृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैः सह सेवनाय निर्यात्युपान्तसरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषागणेन वरदत्मि विमध्यमाने घोषालयेषु दधिमन्थन तीव्रघोषाः रोषात्कलिम्बितसते ककुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेशमित्रशतपत्रकतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या भेरीनिनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेकदयैक सिन्धो श्रीदेवतागृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्री देवताग्रह भुजांतर दिव्य मूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्री स्वामी पुष्करिणी का प्लव निर्मलांगाः श्रेयोर्थिनो हर विरिंच सनंदनाद्याः द्वारे वसंति वर वेत्र हतोत्तमांगाः श्री वेंकटाचलपते तव सुप्रभातम् श्री शेषशैल गरुडाचल वेंकटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् आख्याम् त्वदीय वसतेरनिशम् वदन्ति श्री वेंकटाचलपते तव सुप्रभातम् सेवा परा शिव सुरेश कृशानु धर्म रक्षोऽम्बुनाथ पवमान धनादिनाथाः बद्धा चरित्र विलसन् निज शीर्ष देशाः श्री वेंकटाचलपते तव सुप्रभातम् धाटीषुते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः स्वस्वाधिकार महिमाधिकमर्थयन्ते श्री वेंकटाचलपते तव सुप्रभातम् सूर्येन्दु भौम बुध वाक्पति काव्य सौरि स्वर्भानु हेतु दिविषत् परिषत् प्रधानाः स्वदास दास चरमावधि दास दासाः श्री वेंकटाचलपते तव सुप्रभातम् त्वत्पाद धूलि भरित स्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः कल्पागमाकलनयाकुलताम् लभन्ते श्री वेंकटाचलपते तव सुप्रभातम् त्वत्कोपुराग्र शिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीम् परमाश्रयन्तः मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्री वेंकटाचलपते तव सुप्रभातम् श्री भूमिनायक दयादि गुणामृताभ्ये देवाधिदेव जगदेक शरण्यमूर्ते श्रीमन्ननन्त गरुडारिभिरर्चिताङ्घ्रे श्री वेंकटाचलपते तव सुप्रभातम् श्री पद्मनाभ पुरुषोत्तम वासुदेव वैकुंठ माधव जनार्दन चक्रपाणे श्री वत्स चिन्ह शरणागत पारिजात श्री वेंकटाचलपते तव सुप्रभातम् कंदर्प दर्प हर सुंदर दिव्य मूर्ते कांताकुचाम्बुरुह कुट्मलोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्री वेंकटाचलपते तव सुप्रभातम् लीनाकृते कमठकोल नृसिंह वर्णिं स्वामिन् परश्वथ तपोधन रामचन्द्र शेषांश राम यदुनंदन कल्की रूप श्री वेंकटाचलपते तव सुप्रभातम् एला लवंग घनसार सुगंधि तीर्थम् दिव्यं वियत्सरिति हेम घटेषु पूर्णम् श्रुत्वाद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेंकटपते तव सुप्रभातम् भास्वानुतेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैकुभोरि हङ्गाः श्री वैष्णवास्तततमर्थित मङ्गलास्ते धामाश्रयन्ति तव वेंकट सुप्रभातम् ब्रह्मादयः सुरवरः समहर्षयस्ते सन्तः सनन्दन मुखास्तवथ योगिवर्याः धामान्तिके तव हि मङ्गलवस्तु हस्ताः శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీ నివాస నిరపత్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ ప్రభోజ్య శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీ నివాస నిరపత్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోజ్య శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. ఇత్థం వృషాచలపతేరిహ సుప్రభాతం. యే మానవా ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరింగ భాషాం ప్రజ్ఞా పరార్థ సులభాం పరమాం ప్రసూతే ఇత్థం విశాచలపతేరిహ సుప్రభాతం. యే మానవా ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరింగ భాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే. ఓ